तृतीय स्कंध अथ प्रथम अध्याय श्री शुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान किल छत्रावनम प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् जद्वा अयम् मन्त्रकृद्वो भगवान अखिलेश्वरः पौरवेन्द्रगृहम् हित्वा प्रविवेशात्मसात्कृतम् राजोवाच कुत्र छत्रुर्भगवता मैत्रेयेणाससङ्गमः कदा वा सह संवाद एतद्वर्णयनः प्रभो न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः तस्मिन् वरीयसि प्रश्न साधुवादोपबृंहितः श्रुत उवाच त एवम् ऋषिवर्योऽयम् पृष्टो राज्ञा परीक्षिता प्रत्याहतम् सुबहुवित्मृतात्मा श्रूयतामिति श्रीशुक उवाच जदा तु राजा स्वसुतान् साधून् पुष्णन्न धर्मेण विनष्टदृष्टिः भ्रातुर्जविष्टसुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह यदा सभायाम् कुरुदेव देव्यः केशाभिमर्शम् सुतकर्म गर्ह्यम् न वारयामास नृपश्नुषायः स्वाश्रयी हरन्त्यः कुचकुङ्कुमानि द्यूते तु धर्मेण जितस्य साधोः सत्यावलम्बस्य वनागतस्य न याचतोदात्समयेन दायम् तमो जुषाणो जदजात शत्रुः जदा च पार्थ प्रहितः सभायाम् जगद्गुरुर्यानि जगाद कृष्णः न तानि पुंसामृतायनानि राजोर्मेने क्षतपुण्यलेशः जदोपहूतो भवनम् प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन अथाह तन्मन्त्रदृशाम् वरीयान् जन्मन्त्रिणो वैदुरिकम् वदन्ति अजातशत्रोः प्रतियच्छदायम् तितिक्षतो दुर्विषहम् तवागः सहानुजो जत्र वृकोदराहि स्वसंरुसाजत्तमलम् बिभेषि पार्थांस्तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षति देवदेवः आस्ते स्वपूर्यम् जदुदेवदेवो विनिर्जिता शेष निर्देवदेवः स एष दोष पुरुष दुडास्ते गृहान् प्रविष्टो यमपत्यमत्या पुष्णाश कृष्णाद् विमुखो गतश्रीः त्यजाश्वशैवम् कुलकौशलाय इत्युचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन क येन मत्रोपजुहावजिह्मम् दास्याः सुतम् यद्बलिनैव पुष्टः तस्मिन् प्रतीपः परकृत्यास्ते निर्वास्य तामाशु पुरा श्वसानः स इत्थमत्युल्बलकर्णबाणैर्भ्रातुः पुरो मर्मसुताडितोऽपि स्वयम् धनुर्द्वारि निधाय मायाम् गतव्यथो या दुर्मानयानहम् स निर्गतः कौरव पुण्यलब्धो गजा होया तीर्थपदः पदानि अन्वाक्रमत्पुण्यचिकीर्षयोर्व्याम् स्वधिष्ठितो यानि सहस्रमूर्तिः पुरेषु पुण्योग्बनाद्रिकुञ्जे स्वपङ्कुतो येषु सरित्सरासु अनन्तलिङ्गहे समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः गाम् पर्यटनमेद्य विविक्तवृत्तिः सदा प्लुतोधः शयनोऽवधूतः अलक्षितः स्वैरवधूतवेशो व्रतानि चेरे हरितोषणानि इत्थम् व्रजन् भारतमेव वर्षम् कालेन यावद्गतवान् प्रभाषम् तावच्छशास क्षितिमेकचक्राम् एकातपत्रामरितेन पार्थः तत्राथ शुश्रावसुहृद्विनष्टिम् वनम् यथा वेणुज्वहनि संशयम् संस्पर्धया दग्धमथानुशोचन् सरस्वतीम् प्रत्यगियाय तुष्णीम् तस्याम् त्रितस्योशनसो मनुश्च पृथोरथाग्नेरसितस्य वायोः तीर्थम् सुदासस्य गवान् गुहस्य यच्छाद्देव ससासि सेवे अन्यानि चेह द्विजदेव देवैः कृतानि नानायतनानि विष्णोः प्रत्यंग मुख्यांकित मंदिराणि जद्दर्शन कृष्ण मनुस्मरन्ति ततस्तति व्रज सुराष्ट्रमृद्धं सवीर मत्स्यान कुरु जांगलांश्च कालेन तावत् जमुना उपेत्य तत्रो धवं भागवतं ददर्श स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् आलिंग्य गाढ़ं प्रणयेन भद्रं स्वानाम पृच्छद् भगवत् प्रजानां कचित् पुराणौ पुरुषौ स्वनाभ्य पाद्मान् वृत्तेह किलावतीर्णौ आसातौर्भ्यः कुशलं विधाय कृतक्षणौ कुशलं शूरगेः कचित् कुरूणां परमः सुहृन् भामहश आस्ते सुखमङ्गशौरिः यो वै स्वश्रीणां पितृवत् ददाति वरान् बदान्योत्बरतर्पणेन कचिद् बरुथाधिपतिर्जदूनां प्रदुम्न आस्ते सुखमङ्गवीरः यम रुक्मिणी भगवतो बिलेभे आराध्य विप्रान् स्मरमादिसर्गे कचित् सुखं सात्वतवृष्णिभोज दासार्ह काणामधिपः शयास्ते यमभ्यसिंचत् क्षतपत्र नेत्रो निपाशनाशं परिहृत्य दूरात् कचिद् हरे सौम्य सुतः सदृक्ष आस्ते ग्रणी रथिनां साधु साम्बः असूतयं जाम्बवति व्रताढ्या देवं गुहं योऽम्बिकया धृतग्रे क्षेमं स कश्चिद् जुयुधानयास्ते यः फाल्गुना लब्धधनुरहस्यः लेभेञ्जसाधोक्षज सेवयैव गतिं तदीयां जतिभिर्दुरापाम् कचिद् बुध स्वस्तेनमीव आस्ते स्वफल्कपुत्रो भगवत् प्रपन्नः यः कृष्णपादाङ्कित मार्गपांशुषु अचेष्टत प्रेम विभिन्न धैर्यः क्वचित् शिवं देवक भोजपुत्र्या विष्णु प्रजाया इव देव मातुः या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् अपि सीदास्ते भगवान् सुखं वो यः सात्वतां काम दुघो निरुद्ध जमामनन्ति स्मः शब्दयो निम्मनोमयं सत्पुत्रीय तत्त्वम् अपि स्विदन्ये च निजात्मदैवम् अनन्यवृत्त्या समनो व्रताये हृदिक सत्यात्मचारुदेष्ण गदादय स्वस्ति चरन्ति सौम्य अपि स्वदोर्भ्याम् विजयाच्युताभ्याम् धर्मेण धर्मः परिपाति सेतुम् दुर्योधनोऽतप्यति यत्सभायाम् साम्राज्यलक्ष्म्या विजयानुवृत्त्या किं वा कृताघेष् अघमत्यमर्षि भीमो हि वद्दीर्घतमम् व्यमुञ्चत् जसाङ्घ्रिपातम् रणभूर्नशेः मार्गम् गदायाश्चरतो विचित्रम् कचिज्जशोधा रथचुत्थपानाम् गाण्डीवधनोपरतारिरास्ते अलक्षितो जच्छरकूटगूढो माया किरातो गिरिशस्ततोषाम् जमौ उतस्वितनयौ पृथायः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव रेमात उद्दाय मृधेश्वरित्थम् परात् सुपर्णाविव वज्रिभक्त्रात् अहो पृथापि ध्रियतेर्भकार्थे राजर्षिवर्जेण विना पितेन जस्त्वेक विरोधिरथो विजिज्ञे धनुर्द्वितीयः ककुभश्चतस्रः सम्यानुशोचे तमधा पतन्तम् भ्रात्रे परेताय विदुद्रुहेयः निर्यापितो जेन सुहृत् सुपुर्या अहम् स्वपुत्रान् समनुव्रतेन सोऽहम् हरेर्मर्त विडम्बनेन दृशो नृणाम् चालयतो विधातुः नान्योपलक्ष्यः पदवीम् प्रसादाच्चरामि पश्यन् गतविस्मयत्र नूनम् नृपाणाम् त्रिमदोत्पथानाम् महीम् मुहुश्चालयताम् चमूभिः बधात् प्रपन्नार्तजिहीर्षयेषु अप्युपैक्षताघम् भगवान् कुरूणाम् अजस्य जन्मोत्पथनाशनाय कर्माणि कर्तुर्ग्रहणाय पुंसाम् नन्वन्यथा कोऽर्हति युदेहयोगम् परो गुणानामुत्कर्मतन्त्रम् तस्य प्रपन्नाखिलोकपानामवस्थितानामनुशासने स्वे अर्थाय जातस्य जदुस्वजस्य वार्ताम् सखे कीर्तय तीर्थकीर्तेः इति श्रीमद्भागवते महापुराणे परमहंस्याम संहिताम तृतीय स्कंधे विद्रोध संवादे प्रथमोध्याय प्रथमो